इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् यत् परिष्काराः तस्य प्रशासनस्य कृते बाध्यता न, अपितु प्रतिबद्धता दृढ विश्वासश्च। तेनोक्तं यत् प्रशासनस्य नीतयः जनकल्याणपराः विकासोन्मुखाः प्रगतिवर्धकाश्च सन्ति। ह्यः सायंकाले नवदिल्ल्याम् इकोनॉमिक टाइम्स वर्ल्ड लीडर्स फोरम इत्येतत् मञ्चं सम्बोधयन् श्रीमोदी उक्तवान् यत् तस्य प्रशासनेन परिष्कारेभ्यः स्पष्टा योजना निर्मिता अस्ति, यस्यां प्राथमिकता शासनस्तरीय परिष्कारेभ्यः प्रदत्ता अस्ति। स उक्तवान् यत् देशस्य भविष्यं सुरक्षितं कर्तुं भारतं नीतिनिर्माणस्तरे नवपरिष्कारान् करोति।
15 अगस्त को मैंने लाल किले से सप्त धारा की, सप्त शक्तियों की बात की है और इसलिए भारत आज पॉलिसी लेवल पर नेक जनरेशन रिफॉर्म्स कर रहा है ताकि हमारा फ्यूचर सुरक्षित हो, गवर्नेंस पर रिफॉर्म्स कर रहा है, ईज ऑफ लिविंग के लिए रिफॉर्म्स कर रहा है।
प्रधानमन्त्री उक्तवान् यत् तस्य प्रशासनं केवलं नियमेषु परिवर्तनं न करोति, अपितु तेषां नियमानां पृष्ठे विद्यमानायाः सम्पूर्ण दृष्टेः परिवर्तनमपि करोति। सः उक्तवान् यत् पूर्वं नियमसम्बद्ध दृष्टिः अनुमति पर्यन्तं निषिद्धम् इति आसीत्, अधुना च प्रशासनं ताम दृष्टिं परिवर्त्य निषेध पर्यन्तम् अनुमतम् इति दिशि अग्रेसरति। भारतस्य अध्यक्षतायाम् आयोजितं ब्रिक्स पर्यटन मन्त्रिणाम् उपवेशनम् ह्यः जयपुर घोषणापत्रम् सर्वसम्मत्या स्वीकरणेन सम्पन्नम्। एतत् घोषणापत्रम् ब्रिक्स सदस्य देशानां मध्ये पर्यटन क्षेत्रे सहयोगं सुदृढीकर्तुं कार्ययोजना प्रददाति। घोषणापत्रे सहयोगस्य प्रमुख क्षेत्राणि निर्दिष्टानि सन्ति। एतेषु पर्यटन क्षेत्रे कृत्रिम बुद्धेः उपयोगः, स्थायी पर्यटन पद्धतयः, कौशल विकासः, अबाधित यात्रायाः सौविध्यानि च सम्मिलितानि सन्ति। उपवेशनस्य अध्यक्षतां केन्द्रीय संस्कृति पर्यटन मन्त्री गजेन्द्र सिंह शेखावतः राजस्थानस्य जयपुरे अकरोत्। अनेन सहैव अस्मिन् वर्षे भारतस्य अध्यक्षतायाम् आयोजितस्य ब्रिक्स पर्यटन कार्यसमूहस्य अपि समापनम् अभवत्। केन्द्रीय गृहमन्त्री अमितशाहः पुनरुक्तवान् यत् अवैध प्रवासिनां विरुद्धं शून्य सहिष्णुता नीतिः निरन्तरं प्रवर्तिष्यते तथा अवैध प्रवासिनां परिचय निष्कासन निर्वासन सम्बद्धा प्रक्रिया कठोरतया क्रियान्विता भविष्यति। असौ उक्तवान् यत् देशात् प्रत्येकस्य अवैध प्रवासिनः निर्वासनं प्रति प्रशासनस्य प्रतिबद्धता सर्वोच्च प्राथमिकता अस्ति। असौ एतदपि उक्तवान् यत् जन सांख्यिकीय परिवर्तनं पूर्णतया निरोद्धुं प्रयत्नः करिष्यते। गृहमन्त्री ह्यः पश्चिम बंगालस्य सिलीगुड़ी नगरे कावाखाली प्रांगणे भारतीय न्याय संहितायाः विषये षड् दिवसीय अवबोधन प्रदर्शनीम् उद्घाट्य एकां सभां सम्बोधयन् एतत् उक्तवान्। राष्ट्रपतिः द्रौपदी मुर्मुः आगामि मासस्य पञ्चम दिनांके नवदिल्ल्यां स्थिते विज्ञान भवने अष्टचत्वारिंशत् विद्यालयीय शिक्षकेभ्यः राष्ट्रिय शिक्षक पुरस्कारान् प्रदास्यति। शिक्षा मन्त्रालयेन संसूचितं यत् विद्यालयीय शिक्षकाणां चयनं जनपदस्तरे, राज्यस्तरे तथा राष्ट्रियस्तरे विद्यालय शिक्षा साक्षरता विभागेन त्रिचरणात्मक चयन प्रक्रियया कृतम्। चयनिताः अष्टचत्वारिंशत् शिक्षकाः सप्तविंशति राज्येभ्यः, सप्त केन्द्र शासित प्रदेशेभ्यः अथ केन्द्र प्रशासनस्य षड् संस्थाभ्यः च सन्ति। चयनितेषु अष्टचत्वारिंशत् शिक्षकेषु षड्विंशतिः पुरुषाः, द्वाविंशति च महिलाः सन्ति। भारतर्तु विज्ञान विभागेन अद्य पूर्व मध्य प्रदेशे प्रचण्डात् अतिप्रचण्ड वृष्टेः पूर्वानुमानं कृतमस्ति। असम, सिक्किम, मेघालय, नागालैण्ड, मणिपुर, मिजोरम, त्रिपुरा राज्येषु सोमवासर पर्यन्तं प्रचण्ड वृष्टेः सम्भावना वर्तते। अद्य दिल्ली, पंजाब, हरियाणा, बिहार, छत्तीसगढ़, पूर्वोत्तर प्रदेश, ओडिशा, उत्तराखण्ड, हिमालयीय प्रदेशानां केषुचित् भागेषु अपि समान स्थितेः सम्भावना वर्तते इति वार्ताः।